श्रीयोगेश्वर स्तुतिपद्यपञ्चकम्। वन्दे मातृसुभक्तपादकमलं वन्दे महासर्जकं वन्दे राष्ट्रहितार्थयत्नकुशलं वन्दे महायोगिनं वन्दे सौम्यसुशान्तदान्तसरलं वन्दे महामानवं वन्दे तुङ्गहिमालयप्रियवरं वन्दे हि योगेश्वरम्। सदा मुखं सात्विकभावयुक्तं हस्तं च नित्यं वरदानयुक्तं अङ्गं सदा खदरवस्त्रयुक्तं सदा खदरवस्त्रयुक्तं योगेश्वरं नित्यमहं नमामि नमामि योगेश्वरं नित्यमहं नमामि 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 देव प्रयागे कुटीरे सुरम्ये वसन्तं अग्र्यं बहुधा भजं देशे विदेशे विचरन्तम् आद्यं वेदान्तसिद्धान्तसमर्थितं च वेदान्तसिद्धान्तसमर्थितं च योगेश्वरं नित्यमहं नमामि नमामि योगेश्वरं नित्यमहं नमामि नमामि जनानां शुभचिन्तको यो मुदा विभोर नाम रतो विरागी विरागी मौनी व्रती संयम शीलवान्यो विराजते विश्वजय महात्मा योगेश्वरं नित्यमहं नमामि नमामि योगेश्वरं नित्यमहं नमामि नमामि योगेश्वरं नित्यमहं नमामि योगेश्वरं नित्यमहं नमामि 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 संशोधकं वाचनमग्नमीड्यं जे तेजस्विनं यं स्मृतिशक्तियुक्तम् सर्वेश्वरीनां गुरुपाद पद्मं योगेश्वरं नौमि भवाब्धिपारं भवाब्धिपारं योगेश्वरं नित्यमहं नमामि 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 इति श्री योगेश्वर स्तुति पद्य पंचकम् समाप्तम्।